अस्य श्री गोपाल सहस्रनामस्तोत्रम् पार्वत्युवाच कैलासशिखरे रम्ये गौरी पृच्छति शंकरं ब्रह्मांडाखिलनाथस्त्वं सृष्टिसंहारकारकः त्वमेव पूज्यसे लोकैर्ब्रह्मविष्णुसुरादिभिः नित्यं पठसि देवेश कस्य स्तोत्रं महेश्वर आश्चर्यमिदमत्यन्तै जायते मम शंकर तत्प्राणेश महाप्राज्ञ संशयै छिन्धि शंकर श्री महादेव उवाच धन्यासि कृत पुण्यासि पार्वती प्राणवल्लभे रहस्याति रहस्यै च यत्पृच्छसि वरानने स्त्रीस्वभावान् महादेवी पुनस्त्वं परिपृच्छसि गोपनीयं 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 प्रयत्नतः दत्ते च सिद्धि हानि स्यात् तस्माद्यत्नेन गोपयेत् इदं रहस्यं परमं पुरुषार्थप्रदायकं धनरत्नौघमाणिक्य तुरंगमगजादिकं ददाति स्मरणादिव महामोक्षप्रदायकं तत्तेहं संप्रवक्ष्यामि शृणुष्वावहिता प्रिये योऽसौ निरञ्जनो देवश् चित्स्वरूपी जनार्दनः संसारसागरोत्तारकारणाय सदा नृणां श्रीरङ्गादिकरूपेण त्रैलोक्यं व्याप्य तिष्ठति ततो लोका महामूढा विष्णुभक्तिविवर्जिताः निश्चयन्नाधिगच्छन्ति पुनर्नारायणो हरिः निरञ्जनो निराकारो भक्तानां प्रीतिकामदः वृन्दावनविहाराय गोपालं रूपमुद्वहन् मुरलीवादनाधारी राधायै प्रीतिमावहन् अंशांशेभ्यः समुन्मील्य पूर्णरूपकलायुतः श्रीकृष्णचन्द्रो भगवान्नन्दगोपवरोद्यतः धरणीरूपिणी माता यशोदानन्ददायिनी द्वाभ्यां प्रयाचितो नाथो देवक्या वसुदेवतः ब्रह्मणाभ्यर्थितो देवो देवैरपि सुरेश्वरि जातो वन्यां मुकुन्दोऽपि मुरलीवेदरेचिका तया सार्धौ वचः कृत्वा ततो जातो महीतले संसारसार सर्वस्वं श्यामलं महदुज्ज्वलं ईतज्योतिरहं विद्यै चिन्तयामि सनातनम् गौरतेजो विनायस्तु श्यामतेजस् समर्चये जपे द्वाध्यायते वापि स भवेत् पातकी शिवे स ब्रह्मासुरापि च स्वर्णस्तेयी च पञ्चमः एतैर्दोषैर्विलिप्येत तेजो भेदान्महेश्वरि तस्माज्योतिरभूद्विधाराधामाधवरूपकम् तस्मादिदं महादेवी गोपालेनैव भाषितम् दुर्वाससो मुनिर्मोहे कार्तिक्यां रासमण्डले ततः पृष्टवती राधा सन्देहं भेदमात्मनः निरञ्जनात् समुत्पन्नं मया धीतै जगन्मयी श्रीकृष्णेन ततः प्रोक्तं राधायै नारदाय च ततो नारद तत्सर्वं विरला वैष्णवास्तथा कलौ जानन्ति देवेशि गोपनीयं प्रयत्नतः शठाय कृपणायाथ दाम्भिकाय सुरेश्वरि ब्रह्महत्यामवाप्नोति तस्माद्यत्नेन गोपये विनियोगः अस्य श्रीगोपालसहस्रनामस्तोत्रमहामन्त्रस्य श्री नारदऋषिः अनुष्टुप् छन्दः श्रीगोपालो देवता कामो बीजम् मायाशक्तिः चन्द्रकीलकं श्रीकृष्णचन्द्रभक्तिरूपफलप्राप्तये श्रीगोपालसहस्रनामजपे विनियोगः अथ ध्यानम् कस्तूरीतिलकल्ललाटपटले वक्षस्थले कौस्तुभन् नासाग्रेवरमौक्तिकङ्करतले वेणुःकरे कङ्कणम् सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावली गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतं सप्रियम् श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरं गोपीनानयनोत्पलार्चिततनुं गोगोपसङ्घावृतं गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे अथ श्रीगोपालसहस्रनामस्तोत्रम् ॐ क्लीं देवक कामदेवक कामबीजशिरोमणिः श्रीगोपालो महीपालः सर्ववेदाङ्गपारगः धरणीपालको धन्यः पुण्डरीकः सनातनः गोपतिर्भूपतिः शास्ता प्रहर्ता विश्वतोमुखः आदिकर्ता महाकर्ता महाकालः प्रतापवान् जगज्जीवो जगद्धाता जगद्भर्ता जगद्वसुः। मत्स्यो भीमः कुहू भर्ता हर्ता वाराह मूर्तिमान्। नारायणो ऋषिकेशो गोविंदो गरुड़ध्वजः। गोकुलेन्द्रो महाचंद्रश शर्वरी प्रियकारकः। कमलामुखलोलाक्षः पुंडरीकशुभावहः। दुर्वासाः कपिलो भौमः सिंधुसागर संगमः। गोविंदो गोपतिर्गोत्रक कालिंदी प्रेमपूरकः। गोपस्वामी गोकुलेन्द्रो गोवर्धनवरप्रदः। नन्दादि गोकुलत्राता दाता दारिद्र्यभञ्जनः। सर्वमङ्गलदाता च सर्वकामप्रदायकः। आदिकर्ता महीभर्ता सर्वसागर सिन्धुजः। गजगामी गजोद्धारी कामी कामकलानिधिः। कलंकरहितश्चंद्रो बिंबास्यो बिंबसत्तमः। मालाकारक कृपाकारक कोकिलास्वर भूषणः। रामो नीलांबरो देवो हली दुर्दम मर्दनः। सहस्राक्षपुरी भेता महामारी विनाशनः। शिवशिवतमो भेता बलारातिप्रपूजकः। कुमारी वरदायी च वरेण्यो मीनकेतनः। नरो नारायणो धीरो राधापतिरुदारधीः। श्रीपति श्रीनिधि श्रीमान् मापतिः प्रतिराजः। वृन्दापतिक कुलग्रामी धामी ब्रह्म सनातनः। रेवती रमणो रामश्चञ्चलश्चारुलोचनः। रामायण शरीरोऽयं रामो रामश्रियः पतिः। शर्वरः शर्वरी शर्वः सर्वत्र शुभदायकः। राधा राधयितो राधी राधा चित्तप्रमोदकः। राधारति सुखोपेतो राधा मोहन तत्परः। राधा वशीकरो राधा हृदयाम्भोज षट्पदः। राधालिंगन सम्मोहो राधा नर्तन कौतुकः। राधा संजात संप्रीतो राधा काम फलप्रदः। वृंदापतिक कोशनिधिक कोक शोक विनाशकः। चंद्रापतिश्चंद्रपतिश्चंडको दंड भंजनः। रामो दाशरथी रामो भृगुवंश समुद्भवः। आत्मा रामो जितक्रोधो मोहो मोहांध भंजनः। वृषभानुर्भवो भावक काश्यपिक करुणानिधिः। कोलाहलो हलीहाली हेली हलधर प्रियः। राधा मुखाब्ज मार्तंडो भास्करो रविजो विधुः। विधिर्विधाता वरुणो वारुणो वारुणी प्रियः। रोहिणी हृदयानंदी वसुदेवात्मजो बली। नीलांबरो रौहिणेयो जरासंधवधूमलः। नागो नवांभो विरुदो वीरहावरदो बली। गोपथो विजयी विद्वान् शिपिविष्टः सनातनः। परशुराम वचो ग्राही वरग्राही शृगालः। दम घोषोपदेष्टा च रथग्राही सुदर्शनः। वीरपत्नीय शस्त्राता जराव्याधि विघातकः द्वारकावास तत्वज्ञो हुताशन वरप्रदः यमुना वेग संहारी नीलांबरधरः प्रभुः विभुशरासनो धन्वी गणेशो गणनायकः लक्ष्मणो लक्षणो लक्ष्यो रक्षो वंश विनाशन वामनो वामनी भूतो वमनो वमनारुहः यशोदानन्दनः कर्ता यमलार्जुन मुक्तिदः उलूखली महामानी दामबद्धाह्वयी शमी भक्तानुकारी भगवान् केशवो चलधारकः केशिहा मधुहा मोही वृषासुर विघातकः अघासुर विनाशी च पूतना मोक्षदायकः कुब्जा विनोदी भगवान् कंसमृत्युर्महामखी अश्वमेधो वाजपेयो गोमेधो नरमेधवान् कन्दर्पकोटिलावण्यश् चन्द्रकोटिसुशीतलः रविकोटिप्रतीकाशो वायुकोटिमहाबलः ब्रह्मा ब्रह्माण्डकर्ता च कमलावाञ्छितप्रदः कमला कमलाक्षश्च कमलामुखलोलुपः कमलाव्रतधारी च कमलाभः पुरन्दरः सौभाग्याधिकचित्तोऽयं महामायी महोत्कटः तारकारिसुरत्राता मारीचक्षोभकारकः विश्वामित्रप्रियो दान्तो रामो राजीवलोचनः लंकाधिप कुलध्वंसी विभीषणवरप्रदः सीतानन्दकरो रामो वीरो वारिधिबन्धनः खरदूषणसंहारी साकेतपुरवासनः चन्द्रावली पतिकूलक केशीकंसवधूमरः माधवो मधुहा माध्वी माध्वीको माधवो मधुः मुञ्जाटवी गाहमनो धेनुकारिर्धरात्मजः वंशी वटविहारी च गोवर्धनवनाश्रयः तथा तालवनोद्देशी भाण्डीरवनशङ्खः तृणावर्तकथाकारी वृषभानुसुतापतिः राधा प्राणसमो राधा वदनाब्जमधुव्रतः गोपीरञ्जनदैवज्ञो लीलाकमलपूजितः क्रीडा कमल संदोह गोपिका प्रीतिरंजनः रंजको रंजनो रंगो रंगी रंगमहीरुहः कामक कामारि भक्तोयं पुराण पुरुषक कविः नारदो देवलो भीमो बालो बालमुखाम्बुजः अम्बुजो ब्रह्मसाक्षी च योगी दत्तवरो मुनिः ऋषभः पर्वतो ग्रामो नदी पवनवल्लभः पद्मनाभस्तुरज्येष्ठो ब्रह्मा रुद्रो हि भूषितः गणानां त्राणकर्ता च गणेशो ग्रहिलो ग्रही गणाश्रयो गणाध्यक्षक् क्रोडीकृत जगत्त्रयः यादवेन्द्रो द्वारकेन्द्रो मथुरावल्लभो धुरी भ्रमरः कुन्तली कुन्ती सुतरक्षी महामकी यमुना वरदाता च काश्यपस्य वरप्रदः शङ्खचूडवधो दामो गोपी रक्षण तत्परः पाञ्चजन्यकरो रामी त्रिरामी वनजो जयः फाल्गुनः फाल्गुनसखो विराधवधकारकः रुक्मिणी प्राणनाथश्च सत्यभामा प्रियङ्करः कल्पवृक्षो महावृक्षो दानवृक्षो महाफलः अङ्कुशो भूसुरो भामो भामको भ्रामको हरिः सरलशाश्वतो वीरो यदुवंशी शिवात्मकः प्रद्युम्नो बलकर्ता च प्रहर्ता दैत्यः प्रभुः महाधनो महावीरो वनमाला विभूषणः तुलसीदामशोभाढ्यो जालन्धरविनाशनः शूरसूर्यो मृकण्डश्च भास्करो विश्वपूजितः रविस्तमोहावह्निश्च वाडवो वडवानलः दैत्यदर्पविनाशी च गरुडो गरुडाग्रजः गोपीनाथो महानाथो वृन्दानाथो वरोधकः प्रपञ्ची पञ्चरूपश्च लता गुल्मश्च गोपतिः गङ्गा च यमुनारूपो गोदावेत्रवती तथा कावेरी नर्मदा तापी गण्डकी सरयूस्तथा राजसस्तामसस्त्री सर्वाङ्गी सर्वलोचनः सुधामयो मृतमयो योगिनी वल्लभः शिवः बद्धो बुद्धिमतां श्रेष्ठो विष्णुर्जिष्णुशचीपतिः वंशी वंशधरो लोको विलोको मोहनाशनः रवरावो रवो रावो बालो बालबलाहकः शिवो रुद्रो नलो नीलो लांगली लांगलाश्रयः पारदः पावनो हंसो हंसारूढो जगत्पतिः मोहिनी मोहनो मायी महामायो महामखी वृषो वृषाकपिकालः कालीदमन कारकः कुब्जा भाग्यप्रदो वीरो रजकक्षयकारकः कोमलो वारुणो राजा जलजो जलधारकः हारकः सर्वपापघ्नः परमेष्ठी पितामहः खड्गधारी कृपाकारी राधारमणसुन्दरः द्वादशारण्यसंभोगी शेषनागफणालयः कामश्यामसुखश्रीदश श्रीपतिश्रीनिधिकृतिः हरिर्हरो नरो नारो नरोत्तम इषुप्रियः गोपाली चित्तहर्ता च कर्ता संसारतारकः आदिदेवो महादेवो गौरी गुरुरनाश्रयः साधुर्मधुर्विधुर्धाता भ्राता क्रूरपरायणः रोलम्बी च हयग्रीवो वानरारिर्वनाश्रयः वनौवनी वनाध्यक्षो महावन्द्यो महामुनिः श्यामन् प्राज्ञो विज्ञो विघ्न विघातकः गोवर्धनो वर्धनीयो वर्धनी वर्धनप्रियः वर्धन्यो वर्धनो वर्धी वार्धिन्यः सुमुखप्रियः वर्धितो वृद्धको वृद्धो वृन्दारकजनप्रियः गोपालरमणी भर्ता साम्बकुष्ठविनाशकः रुक्मिणीहरणः प्रेम प्रेमी चन्द्रावलीपतिः श्रीकर्ता विश्वभर्ता च नरो नारायणो बली गणो गणपतिश्चैव दत्तात्रेयो महामुनिः व्यासो नारायणो दिव्यो भव्यो भावुकधारकः स्वश्रेयसं शिवं भद्रं भावुकं भाविकं शुभम् शुभात्मकशुभशास्ता प्रशास्ता मेघनादः ब्रह्मण्यदेवो दीनानामुद्धारकरणक्षमः कृष्णकमलपत्राक्षकृष्णकमललोचनः कृष्णकामी सदा कृष्णस्समस्तप्रियकारकः नन्दो नन्दी महानन्दी मादी मादनकक्किली मिली हिली गिली गोली गोलो गोलालयो गुली गुग्गली मारकी शाखी वटः पिप्पलकृती म्लेच्छा कालहर्ता च यशोदा यशैव च अच्युतः केशवो विष्णुर्हरिः सत्यो जनार्दनः हंसो नारायणो लीलो नीलो भक्तिपरायणः जानकी वल्लभो रामो विरामो विघ्ननाशनः सहस्रांशुर्महाभानुर्वीरबाहुर्महोदधिः समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः गोकुलानन्दकारी च प्रतिज्ञापरिपालकः सदा रामः कृपारामो महारामो धनुर्धरः पर्वतः पर्वताकारो गयो गेयो द्विजप्रियः कम्बलाश्वतरो रामो रामायणप्रवर्तकः द्यौर्विदिवो दिवसो दिव्यो भव्यो भाविभयापहः पार्वती भाग्यसहितो भ्राता लक्ष्मी विलासवान् विलासी साहसी सर्वी गर्वी गर्वितलोचनः मुरारिर्लोकधर्मज्ञो जीवनो जीवनान्तकः यमो यमादिर्यमनो यामी यामविधायकः वंसुली पांसुली पांसुः पाण्डुरर्जुनवल्लभः ललिता चन्द्रिका माली माली मालाम्बुजाश्रयः अम्बुजाक्षो महायक्षो दक्षश्चिन्तामणिः प्रभुः मणिर्दिनमणिश्चैव केदारो बदराश्रयः बदरीवनसम्प्रीतो व्यासः सत्यवती सुतः अमरारिनिहन्ता च सुधा सिन्धुर्विधूदयः चन्द्रोरविशिवश् शूली चक्री चैव गदाधरः श्रीकर्ता श्रीपते श्रीद श्रीदेवो देवकी सुतः श्रीपतिः पुण्डरीकाक्षः पद्मनाभो जगत्पतिः वासुदेवो प्रमेयात्मा केशवो गरुडध्वजः नारायणः परं धाम देवदेवो महेश्वरः चक्रपाणिः कलापूर्णो वेदवेद्यो दयानिधिः भगवान् सर्वभूतेषु गोपालः सर्वपालकः अनन्तो निर्गुणोऽनन्तो निर्विकल्पो निरञ्जनः निराधारो निराकारो निराभासो निराश्रयः पुरुषः प्रणवातीतो मुकुन्दः परमेश्वरः क्षणावनि सार्वभौमो वैकुण्ठो भक्तवत्सलः विष्णुर्दामोदरः कृष्णो माधवो मथुरापतिः देवकी गर्भसम्भूतो यशोदावत्सलो हरिः शिवसङ्कर्षणः शम्भुर्भूतनाथो दिवस्पतिः अव्ययः सर्वधर्मज्ञो निर्मलो निरुपद्रवः निर्वाणनायको नित्यो नीलजीमूतसन्निभः कलाक्षयश्च सर्वज्ञः कमलारूपतत्परः ऋषिकेशः पीतवासो वसुदेवप्रियात्मजः नन्दगोपकुमारार्यो नवनीताशनः प्रभुः पुराणपुरुषश्रेष्ठः शङ्खपाणिः सुविक्रमः अनिरुद्धश्चक्ररथः शार्ङ्गपाणिश्चतुर्भुजः गदाधरः सुरार्तिघ्नो गोविन्दो नन्दकायुधः वृन्दावनचरः शौरिर्वेणुवाद्यविशारदः तृणावर्तान्तको भीमो साहसो बहुविक्रमः शकटासुरसंहारी बकासुरविनाशनः धेनुकासुरसङ्घातः पूतनारिर्नृकेसरी पितामहो गुरुस्ताक्षी प्रत्यगात्मा सदाशिवः अप्रमेयः प्रभुः प्राज्ञो प्रतर्क्य स्वप्नवर्धनः धन्यो मान्यो भवो भावो धीरशान्तो जगद्गुरुः अन्तर्यामीश्वरो दिव्यो दैवज्ञो देवता गुरुः क्षीराभिशयनो धाता लक्ष्मीवाल्लक्ष्मणाग्रजः धात्रीपतिरमेयात्मा चन्द्रशेखरपूजितः लोकसाक्षी जगच्चक्षुः पुण्यचारित्रकीर्तनः कोटिमन्मथसौन्दर्यो जगन्मोहन्न विग्रहः मन्दस्मिततमो गोपो गोपिकापरिवेष्टितः फुल्लारविन्दनयनश्चाणूरान्ध्रनिषूदनः इन्दीवरदलश्यामो बर्हिबर्हावतंसकः मुरलीनिनदालादो दिव्यमाल्याम्बराश्रयः सुकपोलयुगः सुभ्रूयुगलसुललाटकः कम्बुग्रीवो विशालाक्षो लक्ष्मीवांशुभलक्षणः पीनवक्षाश्चतुर्बाहुश्चतुर्मूर्तिस्त्रिविक्रमः कलङ्करहितः शुद्धो दुष्टशत्रुनिबर्हणः किरीटकुण्डलधरः कटकाङ्गदमण्डितः मुद्रिकाभरणोपेतः कटिसूत्रविराजितः मञ्जीररञ्जितपदः सर्वाभरणभूषितः विन्यस्तपादयुगलो दिव्यमङ्गलविग्रहः गोपिकानयनानन्दः पूर्णचन्द्रनिभाननः समस्तजगदानन्दः सुन्दरो लोकनन्दनः यमुनातीरसञ्चारी राधामन्मथवैभवः गोपनारी प्रियो दान्तो गोपीवस्त्रापहारकः शृङ्गारमूर्ति श्रीधामा तारको मूलकारण सृष्टि संरक्षणोपायक क्रूरासुर विभंजनः नरकासुर हारी च मुरारिर्वैरिमर्दनः आदितेय प्रियो दैत्य भीकरश्चेन्दुशेखरः जरासंधकुलध्वंसी कंसारातिस्सुविक्रमः पुण्यश्लोक कीर्तनीयो यादवेन्द्रो जगन्नुतः रुक्मिणी रमणः सत्य भामाजाम्बवती प्रियः मित्रविन्दानाग्नजिती लक्ष्मणा समुपासितः सुधाकरकुले जातो नन्दप्रबलविक्रमः सर्वसौभाग्यसम्पन्नो द्वारकायामुपस्थितः भद्रासूर्यसुतानाथो लीलामानुषविग्रहः सहस्रषोडशस्त्रीशो भोगमोक्षैकदायकः वेदान्तवेद्यसंवेद्यो वैद्यो ब्रह्माण्डनायकः गोवर्धनधरो नाथस्सर्वजीवदयापरः मूर्तिमान् सर्वभूतात्मा आर्तत्राणपरायणः सर्वज्ञः सर्वसुलभः सर्वशास्त्रविशारदः षड्गुणैश्वर्यसम्पन्नः पूर्णकामो धुरन्धरः महानुभावः कैवल्यदायको लोकनायकः आदिमध्यान्तरहितः शुद्धसात्त्विकविग्रहः असमानः समस्तात्मा शरणागतवत्सलः उत्पत्तिस्थितिसंहारकारणं सर्वकारणं गंभीरः सर्वभावज्ञः सच्चिदानन्दविग्रहः विश्वक्सेनः सत्यसन्धः सत्यवान् सत्यविक्रमः सत्यव्रतः सत्यसंज्ञः सर्वधर्मपरायणः आपन्नार्तिप्रशमनो द्रौपदी मानरक्षकः कन्दर्पजनकः प्राज्ञो जगन्नाटकवैभवः भक्तिवश्यो गुणातीतः सर्वैश्वर्यप्रदायकः दमघोषसुतद्वेषी बाणबाहुविखण्डनः भीष्मभक्तिप्रदो दिव्यः कौरवान्वयनाशनः कौन्तेयप्रियबन्धुश्च पार्थस्यन्दनसारथिः नारसिंहो महावीरस्तम्भजातो महाबलः प्रह्लादवरदस्सत्यो देवपूज्यो भयङ्करः उपेन्द्र इन्द्रावरजो वामनो बलिबन्धनः गजेन्द्रवरदस्वामी सर्वदेव नमस्कृतः शेषपर्यङ्कशयनो वैनतेयरथो जयी अव्याहतबलैश्वर्यसम्पन्नः पूर्णमानसः योगेश्वरीश्वरः साक्षी क्षेत्रज्ञो ज्ञानदायकः योगिरुत्पङ्कजावासो योगमायासमन्वितः नादबिन्दुकलातीतश्चतुर्वर्गफलप्रदः सुषुम्नामार्गसञ्चारी देहस्यान्तरसंस्थितः देहेन्द्रियमनः प्राणसाक्षी चेतः प्रसादकः सूक्ष्मः सर्वगतो देही ज्ञानदर्पणगोचरः तत्त्वत्रयात्मको व्यक्तः कुण्डली समुपाश्रितः ब्रह्मण्यः सर्वधर्मज्ञः शान्तोदान्तो गतक्लमः श्रीनिवासः सदानन्दो विश्वमूर्तिर्महाप्रभुः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् समस्तभुवनाधारः समस्तप्राणरक्षकः समस्तसर्वभावज्ञो गोपिका प्राणवल्लभः नित्योत्सवो नित्यसौख्यो नित्यश्रीर्नित्यमङ्गलः व्यूहार्चितो जगन्नाथ श्रीवैकुण्ठपुराधिपः पूर्णानन्दघनीभूतो गोपवेशधरो हरिः कलापकुसुमश्यामक कोमलशान्तविग्रहः गोपाङ्गनावृतो नन्दो वृन्दावनसमाश्रयः वेणुवादरतश्रेष्ठो देवानां हितकारकः बालक्रीडासमासक्तो नवनीतस्य तस्करः गोपालकामिनीजारश चोरजारशिखामणिः परैज्योतिः पराकाशः परावासः परिस्फुटः अष्टादशाक्षरो मन्त्रो व्यापको लोकपावनः सप्तकोटिमहामन्त्रशेखरो देवशेखरः विज्ञानज्ञानसन्धानस्तेजो राशिर्जगत्पतिः भक्तलोकप्रसन्नात्मा भक्तमन्दारविग्रहः भक्तदारिद्र्यदमनो भक्तानां प्रीतिदायकः भक्ताधीनमनाः पूज्यो भक्तलोकशिवङ्करः भक्ताभीष्टप्रदः सर्वभक्ताघौघनिकृन्तनः अपारकरुणासिन्धुर्भगवान् भक्ततत्परः अपारकरुणासिन्धुर्भगवान् भक्ततत्परः इति श्रीसम्मोहनतन्त्रे पार्वतीश्वरसंवादे श्रीगोपालसहस्रनामस्तोत्रम् सम्पूर्णम् अथ माहात्म्यम् इति श्रीराधिकानाथसहस्रनामकीर्तनम् स्मरणात् पापराशीनां खण्डनं मृत्युनाशनम् वैष्णवानां प्रियकरं महारोगनिवारणम् ब्रह्महत्यासुरापानं परस्त्रीगमनं तथा परद्रव्यापहरणं परद्वेषसमन्वितं मानसं वाचिकं कायै यत्पापं पापसंभवं सहस्रनामपठनात् सर्वन्नश्यति तत्क्षणात् महादारिद्र्ययुक्तो यो वैष्णवो विष्णुभक्तिमान् कार्तिक्यां सम्पठेद्रात्रौ शतमष्टोत्तरं क्रमात् पीताम्बरधरो धीमान् सुगन्धैः पुष्पचन्दनैः पुस्तकं पूजयित्वा तु नैवेद्यादिभिरेव च राधाध्यानाङ्कितो धीरो वनमाला विभूषितः शतमष्टोत्तरं देवि पठेन्नाम सहस्रकं तुलसीमालया युक्तो वैष्णवो भक्तितत्परः रविवारे च शुक्रे च द्वादश्यां श्राद्धवासरे ब्राह्मणं पूजयित्वा च भोजयित्वा विधानतः यः पठेद् वैष्णवो नित्यं स याति हरिमन्दिरं कृष्णेनोक्तं राधिकायै मयि प्रोक्तं पुरा शिवे नारदाय मया प्रोक्तं नारदेन प्रकाशितम् मया त्वयि वरारोहे प्रोक्तमेतत्सु दुर्लभम् गोपनीयं प्रयत्नेन न प्रकाश्यं कथैचन शठाय पापिने चैव लम्पटाय विशेषतः न दातव्यं न दातव्यं न दातव्यं कदाचन देयं शिष्याय शान्ताय विष्णुभक्तिरताय च गोदानब्रह्मयज्ञादेर्वाजपेयशतस्य च अश्वमेधसहस्रस्य फलं पाठे भवे ध्रुवम् एकादश्यान्नरस्नात्वा सुगन्धिद्रव्यतैलकैः आहारं ब्राह्मणे दत्त्वा दक्षिणां स्वर्णभूषणम् तत आरम्भकर्तास्मात् सर्वं प्राप्नोति मानवः शतावृत्तं सहस्रञ्च यः पठेद्वैष्णवो जनः श्रीवृन्दावनचन्द्रस्य प्रसादात् सर्वमाप्नुयात् यद्गृहे पुस्तकं देवि पूजितै चैव तिष्ठति न मारी न च दुर्भिक्षन् नोपसर्गभयं क्वचित् सर्पादिभूतयक्षाद्या नश्यन्ति नात्र संशयः श्रीगोपालो महादेवी वसे तस्य गृहे सदा गृहे यत्र सहस्रैच नाम्नां तिष्ठति पूजितम् इति श्रीसम्मोहनतन्त्रे पार्वतीश्वरसंवादे श्रीगोपालसहस्रनामस्तोत्रस्य माहात्म्यं सम्पूर्णम्। ॐ सर्वं श्रीकृष्णार्पणमस्तु।